स्वष्टादुहित्रे वहतुम् कृणोति दीदम् विश्वम् भवनम् समेति। यमस्य माता परे जह्यमाना महो जाजा विवस्वतो ननाश पपा गोहन्नभृताम् मर्त्येभ्यः क्रत्वे समर्णामदधुर्विवस्वते उताश्विना पपरत्यद्ददासे ततः दुद्वा मिथुना सरण्योः पूषात्मेतश्चावजतु प्रभित्वा ननष्टपशर्भवनस्य गोपाः सत्त्वैतेभ्यः परिदत्पितृभ्योऽग्निर्देवेभ्यः सुविदत्रिजेभ्यः आयुर्विश्वाजुः परिपासति त्वा पूषात्वा पादुःप्रवधे पुरस्तात् यत्रासदे सुकृतो यत्र ते जजुस्तत्र त्वा देवः सविता दधातो पूषे मा आशा अनुवेद सर्वासो अस्माम् अभयदमेन नेषत स्वस्तिदा आघृणः सर्ववीरो प्रयुच्छन् पुर एतु प्रजानन् प्रपथे पथावदनिष्टभूषा प्रपथे दिवः प्रपथे पृथिव्योः उभे अभिप्रियतमे सदस्थे आचपरा चचरति प्रजानन् सरस्वतीन्दे भजन्तो हवन्ते सरस्वती मध्वरे दाजमाने सरस्वतीम् सुकृतो अह्वजन्त सरस्वती दाशुषे पार्यन्तात् सरस्वतिजा सरथै जजाथस्वधाभर्देऽपि पितृभर्मदन्ति आसत्यास्मिन् बर्हिषि मादयस्वानमेवा इष आधे ह्यस्मे सरस्वतीञ्जाम् पितरो हवन्ते दक्षिणाजज्ञमभिनक्षमाणाः सहस्रार्घमिळो अत्र भागम् राजस्पोषम् यजमानेषु धेहि आवो अस्मान्मातरः शुन्धयन्तु घृतेन नो घृतप्पः पुनन्तु विश्वम् हिरिप्रम् प्रमहन्ति देवैरुदिदाभ्यश्रुचिरापूत एमे द्रप्सश्च स्कन्दप्रथमाम् अनुद्यो निमञ्जयो निमनजश्च पूर्वाः समानम् यो निमनुसञ्चरन्तम् द्रप्सम् जहाम्यनु सप्तहोत्राः यस्ते द्रप्सस्कन्दति यस्ते अंशर्बाहुच्युतोधिषणाय उपस्थात् अध्वर्योर्वा परिभाजः पवित्रात्तन्ते जुहामिमनसावशकृताम् यस्ते द्रप्सस्कन्नोजस्ते अंशरपश्चजः परसृच अयम् देवो बृहस्पतिः सन्तम् सिञ्चतुराधसे पयस्वतेरोषधयः पयस्वन्मामकम् वचाः अपाम् पयस्वदित्पजस्तेन मा सह शुन्धता